सर्वेषां संस्कृतकक्षायां पुनः एकवारं स्वागतम्. आरम्भे अहम् एकं श्लोकं वच्मि. व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषं पराशरात्मजं वन्दे शुकतातं तपोनिधिम्. इत्युक्ते अत्र श्लोकः कः? अयं श्लोकः, अस्मिन् श्लोके व्यासः, वेदव्यासः कः इति अयं श्लोकः वदति. वेदव्यासः पराशरस्य पुत्रः, शक्तिमहर्षेः पौत्रः. पौत्रः इत्युक्ते पुत्रस्य पुत्रः. अपि च वसिष्ठमहर्षेः नप्ता इत्युक्ते वसिष्ठमहर्षिः व्यासमहर्षेः प्रपितामहः. व्यासमहर्षेः पुत्रः शुकः. इत्युक्ते अत्र भिन्नरीत्या वदामश्चेत् वसिष्ठमहर्षिः व्यासस्य प्रपितामहः, शक्तिः पितामहः, पराशरः पिता, शुकः तस्य पुत्रः. अत्र व्यासः अकल्मषः अपि च तपोनिधिः. तं व्यासं, तादृशं व्यासम् अहं नमस्करोमि, अहं वन्दे इति अर्थः. सः व्यासः किमर्थं वन्दनीयः, किमर्थम् इति अस्माभिः ज्ञातव्यम्. सः व्यासः एव त्रयाणां वेदानां विभागं कृतवान्, अतः एव तस्य नाम वेदव्यासः. अपि च तस्य अन्यनाम अपि अस्ति, कृष्णद्वैपायनः. किमर्थमित्युक्ते कृष्ण इत्युक्ते सः कृष्णवर्णे आसीत्, अपि च द्वीपे वासं कृतवान्, अतः तस्य नाम कृष्णद्वैपायनः. अपि च तस्य अन्यनाम अपि अस्ति, बादरायणः. किमर्थम् इमं श्लोकं पठितवती अद्य इत्युक्ते अद्यतन अस्माकं नूतनविषयः अस्ति बन्धुवाचकशब्दाः. यदा वयं यस्य कस्यापि नाम जानीमश्चेत् साधारणतया सः कस्य पुत्रः, सा कस्याः पुत्री, एतादृशं चिन्तनं कुर्मः. तदर्थम् अहम् इमं श्लोकं पठितवती. अपि च गृहपाठरूपेण अहं किञ्चित् गृहपाठं दत्तवती. अतः प्रथमतया वयं गृहपाठं किञ्चित् तस्मिन् विषये चिन्तनं कृत्वा तदनन्तरं अत्र बन्धुवाचकशब्दानां विषये इतोपि किञ्चित् ज्ञास्यामः अद्य. प्रथमतया अल्लाउद्दीनस्य दीपः इति सम्भाषणमस्ति. सर्वे पठितवन्तः वा सम्भाषणम्?
आं भगिनि.
अधुना पठामः वा, नो चेत् भवन्तः सर्वे वाक्यानि रचितवन्तः वा? किं कुर्मः अधुना?
वाक्यानि रचितवन्तः.
अस्तु,
एकवारं पठामः वा व्याकरण अंशानां विषये, अंशान् परिशीलनार्थम्.
अस्तु,
शीघ्रं पठामः अधुना. सर्वेषां पार्श्वे इदं सम्भाषणम् अस्ति इति भाति. एकवारम् अधुना अत्र शोभाभगिनी अपि च उषाभगिनी अत्र सम्भाषणम् एकवारं पठन्तु.
आं भगिनि, एकनिमिषम् अहं कथाम् उद्घाटनं करोमि.
अद्य प्रातःकाले लिङ्क् प्रेषितवती बालमोदिनी पुस्तकतः.
न, मम पार्श्वे आसीत्, अधुना अहं सिद्धम्. प्रारम्भं करोमि वा? केचन छात्राः क्रीडन्तः सन्ति. प्रथमः वदति, आगच्छन्तु सर्वे कन्दुकेन क्रीडाम.
भवतु क्रीडाम.
कन्दुकम् अत्र क्षिप.
तत्र किमर्थं क्षिपतम्? भवतु अहम् आनयामि.
दीप वदति माम् उन्नयन्तु भवन्तः, अहम् अस्मि अल्लाउद्दीनस्य दीपः.
सर्वे अत्र आगच्छन्तु, अस्मात् कोऽपि ध्वनिः आगच्छति.
दीपः कृपया माम् उन्नयन्तु, अहम् अल्लाउद्दीनस्य दीपः, भवताम् इष्टापूर्तिं करिष्यामि.
किं भवान् अल्लाउद्दीनस्य दीपः, यश्च सेवकः भूत्वा प्रकटीभवति?
दीपः आम्, सः एव दीपः अहम्. अहं भवतां कामनां पूरयिष्यामि, कार्याणि करिष्यामि च.
तर्हि वयम् उन्नयाम.
नमो भवद्भ्यः, आदेशः भवतु, आदेशः भवतु. अहं किं कुर्याम्?
मम विद्यालये गणितकार्यम् अधिकं भवति. कक्षाकार्यगृहकार्ययोः समाप्तिः एव नास्ति.
किम् अहं गणितस्य कार्यं कुर्याम्?
गणितकार्येण सह समाजविज्ञानकार्यम् अपि करोतु भवान्.
यथा भवतः आज्ञा.
मम कृते भोजनम् आवश्यकम्.
आज्ञां ददातु, क्षणार्धेन आनेष्यामि.
मम कृते विविधाः उत्कृष्टाः चाकलेहाः, अनेकविधानि मधुराणि च.
सर्वं भवान् लिखित्वा ददातु, अहम् आनेष्यामि. चतुर्थम् उद्दिश्य भवतः कृते किम् आवश्यकम्?
मम कृते किमपि मास्तु, अस्मद्देशस्य बहवः बाहाः अतिवृष्टया क्षामेण वा गृहस्थाः बहवः दिने द्विवारं भोजनमपि न प्राप्नुवन्ति. केन्द्रसर्वकाराः राज्यसर्वकाराः च महान्तं प्रयत्नं कुर्वन् अस्ति. बहवः स्वयंसेवकाः सेवां कुर्वन्तः सन्ति. कृपया कष्टगृहस्थानां सहायतां करोतु भवान्.
दयालुः भवान् महामानवः, भवतः विचारः उत्कृष्टः. साधु साधु. प्रथमम् उद्दिश्य वदति, भवतः का आशा?
मम इच्छायाः पूर्तिम् अहं स्वप्रयत्नेन करिष्यामि. कस्यपि दीपं दर्शयित्वा भूतस्य सहायता न अपेक्षिता. भगवान् मम कृते बाहुद्वयं, नेत्रद्वयं, कर्णद्वयं, चरणद्वयं च दत्तवान्.
मयि
बलं बुद्धिः च अस्ति. अहं मम बुद्धेः उपयोगं करोमि, मम विद्यायाः उपयोगं करोमि. उत्तमानि कार्याणि कर्तुं मम चरणद्वयं धावति. श्रेष्ठानि कार्याणि कर्तुं मम हस्तद्वयं सदा सिद्धम्.
चतुर्थः वदति, अहमपि मम कार्याणि स्वयं करिष्यामि.
ममापि तथैव, मम कृते किमपि मास्तु.
तृतीयः वदति, मम कार्याणि अहमेव करिष्यामि.
उत्तमाः बालाः भवन्तः, गच्छन्तु, स्वकार्याणि स्वयं कुर्वन्तु, अहमपि गच्छामि.
धन्यवादः. धन्यवादः. उत्तमम्. अत्र चित्रं दत्तमस्ति. अस्मिन् चित्रे कति छात्राः दृश्यन्ते भगिनि?
चत्वारि.
कथं वक्तव्यं? चत्वारः बालकाः. कति छात्रान् पश्यामः?
कति छात्रान्
पश्यामः अत्र?
चत्वारा.
कथं वक्तव्यं? कोऽपि वदति वा अत्र कथं वक्तव्यं? द्वितीयबहुवचनं वक्तव्यम्?
द्वितीयं बहुवचनं
चतुर्शब्दस्य पुंलिङ्ग द्वितीया बहुवचनं वदतु
चतस्रः चतुरः चतस्रः चत्वारि
न भगिनि अत्र पुंलिङ्गे चत्वारः प्रथमाविभक्त्यन्तरूपं चत्वारः तत्र
चतुरः
किन्तु द्वितीया बहुवचनं चतुरः छात्रान् पश्यामि चतुरः छात्रान् पश्यामि तत्र चतुरः इति पदम् अन्यत् पदमपि अस्ति किन्तु अत्र द्वितीया बहुवचनरूपम् अपि चतुरः
अस्तु
अत्र केचन वदतु भगिनि
आमां भगिनि अहं शब्दमञ्जरीपुस्तके पश्यामि चत्वारि नपुंसक अस्ति चतस्रः स्त्रीलिङ्ग चतुरः पुंलिङ्ग किमपि नास्ति भगिनि क्षम्यताम्
उत्तमम् इत्युक्ते तत्र द्वितीय बहुवचनं चतुरः छात्रान् पश्यामि तत्र चतुरः अन्यत् पदं चतुरः इत्युक्ते इण्टेलिजेण्ट् इत्यस्मिन् अर्थे अपि अस्ति किन्तु अत्र चतुरः चतुर्शब्दस्य द्वितीयान्तं रूपं किन्तु अत्र उषा भगिनी भवती वदतु अत्र केचन छात्राः क्रीडन्तः सन्ति तत्र क्रीडन्तः रूपं किं
सप्रत्यय
कोऽपि वदति वा अत्र क्रीडन्तः पूर्णतया वदतु भगिनि शोभा भगिनी वदतु
बहुवचने शत्रान्तरूपम् अस्ति
अपि च लिङ्गं किं
पुंलिङ्गं
तथा तत्र रूपाणि कथं वक्तव्यानि
तत्र
प्रथमविभक्त्यन्तरूपाणि इत्युक्ते शत्रन्तपदं सुबन्तपदं यद्यपि अत्र धातुतः आगच्छति अतः कृदन्तपदमेव कृदन्तपदम् अपि च सुबन्तपदम् इति वदामः सुबन्तपदम् इति कृत्वा त्रिषु लिङ्गेषु त्रिषु वचनेषु सप्तसु विभक्तिषु तस्य रूपाणि भवन्ति अतः केवलं प्रथमाविभक्ति त्रीणि रूपाणि वदतु
एकनिमिषं भगिनि कुत्र अस्ति तत् वाक्यं क्षम्यतां
प्रथमं वाक्यम् अत्र को ब्राकेट् मध्ये अस्ति आवरणे अस्ति
केचन छात्राः क्रीडन्तः सन्ति कश्चन छात्रः क्रीडन् अस्ति क्षम्यताम्
अत्र अहं किं पृष्टवती इत्युक्ते केवलं रूपं वदतु अत्र क्रीडन्तः यथा भवती उक्तवती पुंलिङ्ग बहुवचन प्रथमाविभक्त्यन्तरूपं किन्तु तत्र रूपाणि जानाति चेत् वदतु
क्रीडन् अपि क्रीडन्तः अहं जानामि
अत्र कोऽपि वदति वा अत्र
क्रीडन्तौ क्रीडन्तः
तादृशरूपाणि भवन्ति अत्र शत्रन्तरूपं दत्तमस्ति उत्तमम् अनन्तरं भगिनी शोभा भगिनी भवती वदतु अत्र सर्वे कन्दुकेन क्रीडाम इति दत्तमस्ति तत्र कन्दुकेन इति किमर्थं दत्तमस्ति
कन्दुकेन तृतीया विभक्ति तत्र क्रीडाम इति अकर्मक क्रीड्धातुः अकर्मक अस्ति कर्मपदं न स्वीकरोति इति कारणेन तत्र तृतीया विभक्तौ अस्ति
उत्तमम् तावदेव तदर्थमेव अकर्मकधातुः इति कृत्वा तत्र कन्दुकं क्रीडाम इति दोषपूर्णं वाक्यं कन्दुकेन क्रीडाम इति समीचीनं रूपम् अत्र क्रीडाम तत्र रूपं किं
क्रीडाम लोट्लकारे मध्यमपुरुषे बहुवचनम् अस्ति उत्तमपुरुषे
उत्तमपुरुष बहुवचनं क्रीडाम उत्तमः अत्र कन्दुकम् अत्र क्षिपा, अत्र क्षिपा इति रूपं किम्?
कन्दुकम् अत्र क्षिपा, क्षिपा पठ, त्वं पठ, तत्र मध्यमपुरुषे एकवचने लोट् लकारे अस्ति क्षिपा.
उत्तमम्, उत्तमं भगिनि. अत्र क्षिप् धातुः अस्ति, प्रेरणे इति अस्ति, सुदादिगणीयधातुः. तत्र उभयपदी धातुः इति कृत्वा क्षिपति क्षिपते इति रूपद्वयमपि अस्ति. अनन्तरम् अत्र तत्र किमर्थं क्षिप्तम् इति वाक्यमस्ति. किमर्थं क्षिप्तम्? अत्र तने महोदय भवान् वदति वा अत्र वाक्यं, तत्र प्रयोगः कः?
अत्र कर्मणि प्रयोगः अस्ति. शिप् योगः त, क्षिप्तम् इति तान्तरूपम् अस्ति.
उत्तमम्. इत्युक्ते अत्र क्षिप् धातुः सकर्मकधातुः, अतः सकर्मकप्रयोगः भवति. अत्र यदि वयं कर्तृपदमपि योजयित्वा वदामश्चेत् कथं वक्तव्यम्?
तत्र किमर्थं त्वया क्षिप्तम्?
त्वया क्षिप्तम्, उत्तमं. त्वया क्षिप्तम् अथवा भवता क्षिप्तं, भवद्भिः क्षिप्तम् इति वदामः. अनन्तरं भवतु, अहम् आनयामि, माम् उन्नयन्तु भवन्तः. तत्र तस्मिन् सन्दर्भे किम् अभवत्? उषा भगिनी वदतु. अत्र भवतु अहम् आनयामि इति तत्र तस्मिन् सन्दर्भे तत्र कथायां किम् अभवत्?
चतुर्थः वदति भवतु अहम् आनयामि कन्दुकं, दीपः माम् उन्नयन्तु भवन्तः. उन्नयन्तु
तत्र द्वयोः वाक्ययोः मध्ये तत्र कथायां किम् अभवत्?
किम् अभवत्
कथायां किम् अभवत् इत्युक्ते अत्र अहं चिन्तयामि तत्र कन्दुकं बहुदूरं गच्छति, अन्यत्र बहुदूरं क्षिपति, अन्यत्र पतति कन्दुकः. अतः अन्यत्र कुत्रचित् पतति कन्दुकः, तदा तदर्थमेव तत्र सः वदति अहम् आनयामि, सः अन्यत्र गच्छति. तदा तत्र दीपः अस्ति, माम् उन्नयन्तु भवन्तः. अहम् अल्लाव् वदतु.
दीपः कः अस्ति भगिनी? लैक् अन्यत्र, लैक् तत्र किमर्थं क्षिप्तं? भवतु अहम् आनयामि, अन्यत्र कन्दुकं पतति, तत्र अस्ति वा दीपः?
कन्दुकः अन्यत्र पतति, तत्र सः चतुर्थः बालकः तत्र गच्छति, तत्र दीपं पश्यति, तत्र अथवा ध्वनिं शृणोति.
अहम् अस्मि अलावुद्दीनस्य दीपः, अस्मात् कोऽपि ध्वनिः आगच्छति.
इत्युक्ते
कन्दुकम् आनयितुं तत्र गच्छति, तत्समये सः ध्वनिः शृणोति चतुर्थः बालकः.
ध्वनिं शृणोति, उत्तमम्. अत्र एकः दीपः अस्ति, सः दीपः उच्चैः वदन् अस्ति, कृपया माम् उन्नयन्तु, अहम् अल्लाउद्दीनस्य दीपः, भवताम् इष्टापूर्तिं करिष्यामि. अत्र चतुर्थः बालकः तत्र गच्छति, तत्र सः शृणोति. अत्र उन्नयन्तु रूपं किं भगिनि?
उन्नयन्तु नयतु अस्ति लोट्लकारे, उन्नयन्तु उपसर्ग उ अस्ति,
उत् अस्ति,
उत् धातु अस्ति,
उत् उपसर्गपूर्वकः नी धातुः.
नी ऋस्व ईकारः अस्ति वा नी अस्ति वा भगिनि?
दीर्घ ईकारः, उत् उपसर्गपूर्वकः नी धातुः, नी धातोः रूपं नयति, उत् उपसर्ग नयति. किन्तु अत्र वदतु.
नयतु, नयतां, नयन्तु, बहुवचने उत्तमपुरुषे अस्ति.
उत्तमम्. अत्र उन्नयन्तु गीताञ्जलि भगिनी भवती वदति वा अत्र सन्धेः नाम किम्?
अनुसारम् अस्ति किन्तु अग्रे
उत्योगः नयन्तु. नो चेत् के कोऽपि अन्यः तनेर् महोदय वक्तुं शक्नोति
वा? यरोनु नासिकेनु नासिको वा इति.
अनुनासिकसन्धिः इत्युक्ते प्रथमतया दकारस्य स्थाने दकारादेशः भवति, उद् भवति, तदनन्तरं दकारस्य स्थाने अनुनासिकवर्णादेशः भवति. यरोनु नासिकेनु नासिको वा इति सूत्रेण अत्र उन्नयन्तु, माम् उन्नयन्तु भवन्तः इति सः वदति. अत्र साधारणतया वयं उन्नतिः इति पदं शृणुमः. उन्नतिः इत्युक्ते संस्कृतभाषायां या स्थितिः अस्ति सा स्थितिः भवन्तम् उपरि नयति, सा स्थितिः एव उन्नतिः. उन्नतिः इति तिन् प्रत्ययान्तरूपं, किन्तु अत्र लोट्लकाररूपं दत्तमस्ति.
नति भगिनी उत् योगः नति
नयति
नो उन्नति.
उत् तत्र उत् उपसर्गपूर्वकः नी धातुः अपि च क्तिन् प्रत्ययान्तरूपम् यथा मतिशब्दवत् उन्नतिः, मतिः, गतिः तादृशानि रूपाणि सन्ति. माम् उन्नयन्तु. अपि च अत्र दीपात् ध्वनिः आगतः. भवताम् अत्र भवतां रूपं किं भगिनि वदतु? उषा भगिनि
बहुवचनं षष्टिविभक्ति भगिनि.
भवताम् इष्टापूर्तिं करोमि, इष्टा करिष्यामि. उत्तमं. लृट्लकाररूपम्. अत्र इष्टापूर्तिः इति पदमस्ति, अपि च इष्टापूर्ति दीर्घ ईकारान्तपदं, दीर्घपदमस्ति. तत्र इष्टापूर्ति इति वदामश्चेत् गुणीशब्दवत् तत्र नकारान्तपदं भवति, किन्तु अत्र इष्टापूर्तिः ह्रस्व ईकारान्तपदं दत्तमस्ति. भवताम् इष्टापूर्तिं करिष्यामि. अत्र इष्टापूर्तिः इत्युक्ते किं भगिनि?
इष्टापूर्ति वाट् एवर् यु लैक्
इत्युक्ते ऐ विल् ग्राण्ट् युवर् विशेस्.
अत्र इष्टापूर्ति इत्युक्ते इष्टानां पूर्तिः इति अस्ति वा? षष्टि तत्पुरुषसमास
तथा एव भवति महोदय. इष्टापूर्तिः.
अस्तु.
कथं दीर्घ ईकारान्त ह्रस्व अभवत् भगिनि?
तत्रापि समस्तपदमस्ति. तत्र समस्तपदस्य तत्र समासः कः इति तत्र समासं दृष्ट्वा तत्र लिङ्गपरिवर्तनं भवति वा, किमर्थं भवति इति द्रष्टव्यम्. अस्तु. अनन्तरम् अत्र इतोपि किं दत्तमस्ति? भवतां यश्च सेवकः भूत्वा प्रकटीभवति. अत्र प्रकटीभवति इति पदमस्ति. प्रकटीभवति इत्युक्ते किम्?
अहं दर्शनं ददामि.
तत्र अन्यत् पदं वदतु कोऽपि. प्रकटीभवति.
त्रिषु लिङ्गेषु अस्ति वा भगिनि? प्रकटः प्रकटं
तत्र एकः प्रत्ययः अस्ति भगिनी, स्पष्टीकरोति, प्रकटीभवति, तादृशरीत्या पदमस्ति चेत् तत्र एकः प्रत्ययः अस्ति, तदर्थमेव तत्र ईकारान्तं सिद्ध्यति, प्रकटीभवति तादृशरीत्या भवति. अत्र साधारणतया वयं प्रत्यक्षः भवति तथा वदामः. प्रत्यक्षः इत्युक्ते तत्रापि प्रति उपसर्गपूर्वकः अक्ष अत्र तथा रूपं सम्भवति. उत्तमम्. अनन्तरम् अहं भवतां कामनां पूरयिष्यामि, कार्याणि करिष्यामि च. उन्नयाम तत्र रूपं किं भगिनि?
उन्नयाम लोट्लकारे बहुवचन अस्ति मा
लोट्लकार बहुवचनम् उत्तमपुरुषरूपम् अस्ति. इत्युक्ते उपरि नयाम इति अस्ति अर्थः अत्र. नमो भवद्भ्यः इति पदमस्ति अत्र. नमो भवद्भ्यः अत्र पङ्क्तिः अस्ति. तने महोदय वक्तुं शक्नोति वा अत्र
अत्र किं किं पुनः वदतु भगिनि?
नमो भवद्भ्यः तत्र सन्धिः अस्ति.
कुत्र नमो भवद् अत्र? हा अत्र वितर्गसन्धिः अस्ति इति भाति. नमः योगः भवद्भ्यः अत्र भ इति मृदु व्यञ्जन व्यञ्जनम् अस्ति. तर्हि नमः इत्यस्मिन् वितर्गस्य लोपः भूत्वा उकारस्य आदेशः भवति, तस्मात् गुणसन्धि भूत्वा नमो इति भवति.
उत्तमं. तावदेव. इत्युक्ते प्रथमतया विसर्गस्य स्थाने उकारादेशः, अनन्तरम् उकार अकारयोः मेलनेन तत्र ओकारः सिद्ध्यति. तत्र पञ्चभाट्टसूत्राणि सन्ति, तेषु चतुर्थं सूत्रमस्ति. हश्वर्णः मृदुव्यञ्जनम् इत्युक्ते हश्वर्णः. अतः तत्र सूत्रमस्ति, अतः परस्य विसर्जनीयस्य अतिहशि च ऊर्ध्वम् इति सूत्रम्. अतः परस्य विसर्जनीयस्य अतिहशि च ऊर्ध्वम् इति भवति. तेन अत्र विसर्गस्य स्थाने तादृ ओकारः आगतः. अत्र आदेशः भवतु, आदेशः इत्युक्ते आज्ञा अथवा शासनम् इति वदामः. आदेशं ददातु. किं कुर्यां भगिनि? किं कुर्यां इति दत्तमस्ति. दीपः पृच्छति अहं किं कुर्यां इति वदति. इत्युक्ते किम् अत्र? किं कुर्यां रूपं किम्?
एकवचनं.
अपि च पुरुषः कः?
उत्तमपुरुषः.
उत्तमपुरुषः. कोऽपि वदति वा रूपाणि अन्येषां कृते एकवारं? विधिलिङ्गरूपाणि
अहं वदामि.
वदतु.
कुर्या, कुर्याता, कुर्युः, कुर्यो, कुर्याः, कुर्यातं, कुर्यात, कुर्याम, कुर्याव, कुर्याम.
कुर्याम. धन्यवादः भगिनि. अनन्तरम् अत्र कक्ष्याकार्यगृहकार्ययोः तत्र रूपं किं?
षष्ठी भवति.
अपि च
षष्टिर्भक्ति द्विवचनम्.
द्विवचनं षष्टिद्विवचनम् अस्ति. कक्ष्याकार्यगृहकार्ययोः समाप्तिः नास्ति. समाप्तिः अत्रापि समुपसर्गपूर्वकः आप् धातुः, तिन् प्रत्ययान्तरूपं. गणितकार्येण सह समाजविज्ञानकार्यम्. अत्र समाजविज्ञानकार्यम् इत्युक्ते किं भगिनि?
समाजविज्ञानकार्यम् आङ्ग्लभाषायां वदामि मह्यं.
वदतु वदतु.
पब्लिक् समाज
इत्युक्ते
सोशल् सैन्सस् सोशल् सैन्स् समाजविज्ञानकार्यं अपि करोतु भवान्. मम कृते भोजनम् आवश्यकम् इति वाक्यमस्ति, तत्र अन्यरूपेण अन्यत् रूपेण वदामश्चेत् किं वदामः तत्र? मम कृते भोजनम् आवश्यकम्.
मां भोजनम् आवश्यकम् इति अपि सम्यक् अस्ति वा?
अत्र मम कृते इत्यस्मिन् स्थाने मह्यं भोजनं
मह्यं मह्यं न मां नास्ति मह्यं भोजनम् आवश्यकं
मह्यं भोजनं ददातु इति अपि वक्तुं शक्नुमः अत्र. अपि च आनेष्यामि क्षणार्धेन आनेष्यामि. अत्र क्षणार्धः क्षणार्धः इत्युक्ते क्षणार्धं वा किमपि अत्र इत्युक्ते अत्र जस्ट् इन् ए मोमेण्ट् क्षणार्धेन वदतु.
झटिसि
झटिति क्षणार्धेन आनेष्यामि. वदतु भगिनि गीताञ्जलि भगिनी वदतु.
अर्ध अर्ध क्षण समयेन
अर्धक्षणम्
अर्धक्षणं
मम कृते वदतु महोदय.
अहम् अत्र प्रथम तत्पुरुष समास अस्ति वा क्षणम् अर्धम्?
अत्र अर्धशब्दः पूर्वपदमस्ति चेदेव प्रथमतत्पुरुषसमासः भवति महोदय. पूर्वशब्दः पूर्व अर्ध अधर उत्तर एतानि पदानि पूर्वपदे स्यात्. अपि च उत्तरपदस्य विभक्तिः अर्धं क्षणस्य इति भवति वा तत्र? विग्रहवाक्यं वदामश्चेत् अर्धं क्षणस्य इत्युक्ते तत्र प्रथमतत्पुरुषसमासे उत्तरपदस्य विभक्तिः षष्टिविभक्तिः स्यात्. पूर्वपदस्य पूर्वपदस्य लिङ्गं नपुंसकलिङ्गं भवेत्. अपि च तत्र चत्वारि कानिचन पदानि सन्ति, तेषु अन्यतमं पदम् अर्धशब्दः अस्ति चेत् अर्धं रात्रेः अर्धरात्रिः तथा एव अत्रापि अर्धं क्षणस्य इति विग्रहवाक्यं रचयामश्चेत् प्रथमतत्पुरुषः भवति. किन्तु द्रष्टव्यं तथा भवति वा. साधारणतया समासाः तत्र विग्रहवाक्यम् अर्धम् अर्धम् अर्थः कः अर्धं दृष्ट्वा एव वयं वक्तुं शक्नुमः. उत्तमम्. अनन्तरं अत्र उत्कृष्टाः इति पदमस्ति. उत्कृष्टाः रूपं किं भवान् वदतु?
अहं अस्तु. उत्कृष्टः इति उत् उपसर्गपूर्वकः कृष् धातुः, तस्मात् प्रत्ययः योजनेन उत्कृष्टः इति रूपं निष्पद्यते.
उत्तमं. पुंलिङ्गरूपं पुंलिङ्ग बहुवचनरूपं किमर्थं चेत् तत्र चाकलेहः इति पुंलिङ्गपदमस्ति इति कृत्वा विविधाः चाकलेहाः उत्कृष्टाः चाकलेहाः इत्युक्ते विशेषणविशेषभावः अस्ति तत्र. यथा भवान् उक्तवान् उत् उपसर्गपूर्वकः कृष् धातुः क्तान्तरूपम्. अनेकविधानि मधुरखाद्यानि सन्ति. अत्र खाद्यम् इति पदमस्ति. खाद्यम् इति तत्र खादति इत्यस्य कर्मणि रूपं किम्?
खादनम् सारि खादनं
खाद्यते इति
खाद्यते खाद्यते खादति खादति इति कर्तृप्रयोगे सामान्यलट्लकाररूपं. किन्तु कर्मण्यर्थे तत्र लट्लकाररूपं कर्मणि लट् रूपं खाद्यते तस्मात् खाद्यते इति वदतु भगिनि
खाद्येन
खादनम् इति पदं भिन्नं पदम् अत्र खाद्यं खाद्यम् इति पदमस्ति तत्र कोऽपि प्रत्ययः अस्ति भवान् जानाति वा महोदय तनय महोदय अत्र खाद्य धातोः कर्मणि लट् खाद्यते किन्तु अत्र खाद्यं खाद्यानि इति कृदन्तपदमस्ति अनेकविधानि मधुरखाद्यानि च आनयतु इति सः वदति अत्र शोभा भगिनी भवती वदति वा अत्र उद्दिश्य रूपं किम्
लेबन्तरूपम् उद्दिश्य उद्देशः उद्दिशति इति वदामि
अत्र लट्लकाररूपं किं भवति
उद्दिशति उद्देशति अथवा उद्दिशति भगिनि
उद्दिशति
उद्दिशति उद्दिश्य वाक्यं भवति ताम् उद्दिश्य किमपि
इत्युक्ते चतुर्थम् उद्दिश्य इत्युक्ते तम् उद्दिश्य
तम् उद्दिश्य अस्तु
उद्दिशति इति रूपमस्ति तत्र पूर्वस्मिन् वाक्ये खाद्यम् इति पदमस्ति साधारणतया तत्र किं वदामः तत्र कृदन्तपदानि त्रीणि पदानि सन्ति कृत्प्रत्ययान्त कृदन्तरूपाणि तव्यत् रूपम् अनियर्रूपम् अपि च अहं चिन्तयामि यत् प्रत्ययान्तरूपं तेषाम् अर्थः समानः यथा खादनीयं खादितव्यं खाद्यम् एतानि त्रीणि पदानि सन्ति तेषाम् अर्थः तु समानः तत्र खादनीयं खादितव्यम् इत्युक्ते समथिङ्ग् ईटबल् दट् ईस् टु बि ईटन् ईटबल् इति अर्थः अत्र तेषाम् अर्थः तु समानः एव किन्तु भिन्नभिन्नप्रत्ययानां योजनेन भिन्नपदानि तत्र सिद्ध्यन्ति
अपि ते पदानि तृतीयविभक्ति एव स्वीकरोति वा
किमर्थं उत्तमम् इत्युक्ते तत्र तव्यत् प्रत्ययः वा अनियत् प्रत्ययः कर्मणि अर्थे एव भवति उत्तमम् इत्युक्ते तत्र कर्तृपदं तृतीयविभक्त्यां त्रीणि एकम् एकं तथा एव भवति कर्मण्यर्थे एव साधारणतया तव्यत् प्रत्ययं वा अनियर् प्रत्ययं वा अथवा खाद्यं तत्र यत् इति अहं चिन्तयामि यत् आर् यत् प्रत्ययः अस्ति कर्मण्यर्थे एव भवति अपि च वदतु भगिनि
उद्दिश्य उत् योगः
दिश् धातुः उद्दिशति परन्तु वयं जानीमः उपदिशति उद्दिशति तादृशरीत्या एव अत्र भिन्न उपसर्गः अत्र उत् योगः दिश् उपयोगः दिश् उपदिशति तत्तु भिन्नं पदम् एतद् भिन्नं पदम् अस्मद्देशस्य बहवः भागाः अतिवृष्ट्या क्षामेण वा ग्रस्ताः अस्मद्देशस्य इति पदमस्ति अत्र गीताञ्जलि भगिनी भवती वदतु विभक्तिः का तस्मिन् विषये
अस्मत् षष्ठी विभक्ति बहुवचन
षष्ठी बहुवचनम् अस्मद्देशः षष्टि एकवचनं अत्र अस्मद्देशः इति समस्तपदं यदा वयं समस्तपदं निर्मामः तदा प्रातिपदिकं स्वीकृत्य वयं द्वयोः पदयोः प्रातिपदिकं स्वीकृत्य समस्तपदं निर्मामः. अत्र अहं शब्दस्य प्रातिपदिकम् अस्मत् अस्मत् इति प्रातिपदिकमस्ति. अस्मत् जस्तसन्धिः भूत्वा अस्मद् भवति, अस्मदियोगः. यत्र यत्र समासः भवति तत्र सन्धिः नित्यः, अतः अस्मद्देशस्य इति भवति. यदि एकवचने वदामश्चेत् किं वदामः? तनय महोदय वदतु.
एकवचने अस्मद्देशः,
अस्मद्देशः बहुवचने अस्ति, किन्तु एकवचने वदामश्चेत्
ओ अस्मद् दिक् अस्ति वा?
अत्र मम देशः इति वदामः, किन्तु मम देशः इति विग्रहवाक्यं भवति, किन्तु तत्र मत् इति प्रातिपदिकं स्वीकर्तव्यम् एकवचने.
ओ अस्तु, तत्र मद्देशस्य इति भवति वा?
मद्देशः भवति.
ओ अस्तु, अत्र विकल्पमस्ति
भगिनि.
यद्यपि अहं शब्दस्य प्रातिपदिकम् अस्मद्, किन्तु बहुवचने वदामश्चेत् अस्मद्देशः भवति, किन्तु एकवचने वदामश्चेत् विग्रहवाक्यं मम देशः, किन्तु समस्तपदं मद्देशः.
मत् अस्माभ्याम् अस्मत्
तथा भवति. उत्तमम्. अपि च अत्र अतिवृष्ट्या क्षामेण, अत्र शोभा भगिनी वदतु तत्र रूपाणि कानि.
अतिवृष्टि बहवः भाग अतिवृष्ट्या क्षामेण वा ग्रस्ताः. तत्र अतिवृष्टिः इत्युक्ते अधिकतया वृष्टिः भवितुं भवति इति. क्षाम इत्युक्ते वृष्टिः एव नास्ति. ग्रस्ताः इत्युक्ते तत्र अफेक्टेड् इति अस्ति, पीडितः. अतिवृष्ट्या तत्र षष्टिविभक्ति अस्ति. क्षम्यतां, तृतीयविभक्ति. अतिवृष्ट्या अपि क्षामेण द्वे अपि तृतीया विभक्तौ स्तः. बहवः
अत्र पश्यतु क्षामेण किमर्थं तत्र णत्वम्?
तत्र क्षा इत्यस्मिन् शकारः अस्ति, मूर्धन्यशकारः. अपि तत्र मकारः बाधा न भवति, किमर्थं चेत् पवर्गे अस्ति. पवर्गस्य कवर्गस्य सदस्यानि बाधाः न भवति, तदर्थं णत्वं भवति.
उत्तमं. तत्र क्षकारः संयुक्ताक्षरं, तत्र ककारः अपि च षकारः अस्ति तस्मिन् अक्षरे. उत्तमम्. अपि च अत्र तने महोदय भवान् वदतु, वृष्टिः इति पदस्य रूपं कथं निष्पन्नं भवति?
अत्र वृष्टिः इति, अत्रापि वृष् धातोः परे तिन् प्रत्ययः अस्ति इति मन्ये.
तिन् प्रत्ययः वृष्टिः. अपि च अत्र पश्यन्तु, अत्र ग्रस्ताः इति पदमस्ति, तत्र ग्रसति इति एकं क्रियापदमस्ति. ग्रस् धातोः रूपं ग्रसति इत्युक्ते स्वालो इति अर्थः. ग्रसति इत्युक्ते पीडयति, न तत्र स्वालो इति अर्थः अस्ति. अत्रापि ग्रस्ताः इति कृतान्तरूपम्. अत्र अतिवृष्ट्या
ग्रहणम् इति पदस्य रूपमेव वा भगिनि?
अत्र ग्रहणम् इत्यस्मिन् ग्रह धातुः. अत्र ग्रस् धातुः, ग्रसति साधारण अर्थः तु पीडयति, किन्तु ग्रसति इत्युक्ते स्वालो.
अहं किमर्थं पृष्टवती चेत् यदा एक्लिप्स् भवति ग्रहणम् इति वदामः तत्रापि स्वालो अस्ति
स्वालो एव किन्तु तत्र ग्रहधातुः भिन्नः ग्रस् धातुः भिन्नः अपि च द्विवारम् इत्युक्ते अत्र द्विवारं त्रिवारम् एकवारम् अत्र वारम् इत्युक्ते किम् भगिनी वदतु एकवारम् अहम् एकवारं खादामि अहं बहुवारं खादामि वन्स् ट्वैस् तथा तत्र वारम् इत्युक्ते अत्र साधारणतया वारम् इत्युक्ते वीक् इत्यस्मिन् अर्थे नास्ति अत्र ट्वैस् वन्स् ट्वैस् तथा एकवारं द्विवारं बहुवारं केन्द्रसर्वकारः राज्यसर्वकारः च महान्तं प्रयत्नं कुर्वन् अस्ति केन्द्रसर्वकारः इत्युक्ते
सेण्ट्रल् गवर्न्मेण्ट्
गवर्न्मेण्ट् सेण्ट्रल् गवर्न्मेण्ट् सर्वकारः इत्युक्ते गवर्न्मेण्ट् एव
भगिनी अत्र सर्कार इति अपि अस्ति तत्र सर्वकारः सर्कारः इति द्वे अपि पदानि पदौ सन्ति अथवा सर्कारः इति सम्यक् नास्ति
दृष्ट्वा एव वक्तुं शक्नोमि भगिनि सर्वकारः इति एव दत्तमस्ति किन्तु सर्कार् हिन्दीभाषायाम् अस्ति किन्तु संस्कृतभाषायाम् अपि अस्ति वा इति द्रष्टव्यम् सर्वकारः गवर्न्मेण्ट् अत्र पश्यन्तु वदतु महोदय अस्ति वा पदं
न मम प्रश्नः आसीत् अत्र महान्तम् इति रूपम् अस्ति वा महन्तम् अस्ति
अत्र पश्यन्तु अत्र महान् शब्दस्य रूपाणि कोऽपि वदति वा अत्र किञ्चित् भिन्नं पदम् अत्र तत्र रूपाणि महान् महान्तौ महान्तः तादृशरीत्यरूपाणि भवन्ति अत्र व्यस्तरूपेण लिखितमस्ति महान्तं प्रयत्नम् इति व्यस्तरूपेण लिखितमस्ति किन्तु समस्तप्रदं पदं कृत्वा वदामश्चेत् कथं वक्तव्यम्
महाप्रयत्नम् इति
महाप्रयत्नः
यथा
महाराजः एव वदतु महोदय
अत्र सर्वकारः इत्युक्ते सर्वं करोति इति अस्ति वा तत्र तस्य विग्रहवाक्यम्
अहं चिन्तयामि तत्र अत्र कारः यदा कदापि कारः इति वदामश्चेत् अधिकारः इति वदामश्चेत् तत्र अधि उपसर्गपूर्वकः क्रू धातुः अपि च घञ् प्रत्ययः अधिकारः इति वदामश्चेत् तथा एव अत्रापि सर्वकारः सर्वं करोति सर्वकारः
सर्वं करोति अपि च सर्वे कृते करोति
सर्वेषां कृते करोति
सर्वेषां
किन्तु अत्र उत्तमं भगिनि महान्तं प्रयत्नम् अत्र महान् शब्दस्य द्वितीयाविभक्ति एकवचनरूपं महान्तं प्रयत्नं महाप्रयत्नं
महत् शब्दः न भगिनि
महत् शब्दः किन्तु रूपाणि तत्र महान् महान्तौ तत्र द्वितीय द्विवचने तत्र दीर्घत्वं सिद्ध्यति महान्तौ किन्तु भवान् शब्दं वदामश्चेत् भवान् भवन्तौ इति भवति किन्तु अत्र महान् महान्तौ इति भवति अत्र दीर्घ आकारः श्रूयते तत्र. अत्र प्रयत्नः इति पदमस्ति, किन्तु कुर्वन् इति सत्रन्तपदमस्ति इति कृत्वा सत्रन्तपदम् अपि कर्मपदं स्वीकरोति. अतः महान्तं प्रयत्नं कुर्वन् अस्ति. कुर्वन् उषा भगिनी वदतु, कुर्वन् रूपं किं?
कुर्वन् कुर्वन् कृतं कुर्वन् कुर्वन्
गीताञ्जलि भगिनी वदतु.
शत्रन्तपदं भगिनि कुर्वन् एकं कार्यम् अस्ति, क्रियापदान्
उत्तमम् इत्युक्ते पुंलिङ्ग एकवचनरूपं. बहवः स्वयंसेवकाः सेवां कुर्वन्तः सन्ति, कृपया कष्टग्रस्तानां सहायतां करोतु भवान्. कष्टग्रस्तानां वदतु भगिनि, तत्र रूपं किं गीताञ्जलि भगिनि?
तृतीय बहुवचन कष्टग्रस्तानां तृतीय सोरि षष्टि बहुवचनं षष्टि बहुवचन कष्टग्रस्तानां इत्युक्ते दरिद्राणां
दरिद्राणां सहायताम् अत्र सहायतां द्वितीय एकवचनं. अत्र
अत्र कष्टग्रस्त इति अपि अर्थम् अस्ति वा भगिनि? ते सर्वे अतिवृष्टि अपि क्षामेण अतिवृष्ट्या क्षामेण पीडिताः ततः कष्टे सन्ति.
कष्टग्रस्तः एकवचनम्.
अत्र दरिद्राः एव नास्ति
तत्र इत्युक्ते तत्र
दरिद्रा इत्युक्ते पूर् एव अस्ति वा अथवा किमपि कष्टे अस्ति सः दरिद्रः?
यदि जनाः कृषकाः सन्ति तदनन्तरम् अतिवृष्ट्या क्षामेण पीडिता अस्ति तदनन्तरम् इत्युक्ते निर्धन अस्ति
भवितुमर्हति न मम अवगमनार्थं पृच्छामि. तत्र यद्यपि अतिवृष्टिः भवति सर्वे पीडिताः सन्ति तत्र.
अत्र एकं वदामि, अत्र कष्टग्रस्तः इति प्रथमान्तरूपं यथा भगिनी उक्तवती षष्टि बहुवचनरूपमस्ति कष्टग्रस्तानां. तत्र अर्थः दरिद्राः इति वा न वा इति तत्र प्रश्नः नास्ति. अत्र ते सर्वे कष्टग्रस्ताः इत्युक्ते तेषां कष्टानि सन्ति इति अर्थः. किन्तु अत्र अहम् एकं वक्तुम् इच्छामि, कष्टग्रस्तः इति पदं समस्तपदम्, अत्र तृतीयतत्पुरुषसमासः भवति. तत्र पूर्वपदस्य विभक्तिः कष्टैः अथवा कष्टेन इति भवति, अपि च ग्रस्त इति पदं क्तान्तपदम् इत्युक्ते उत्तरपदं क्तान्तपदम् अस्ति चेत् तत्र साधारणतया तृतीयतत्पुरुषसमासः भवति. कष्टग्रस्तः इति पदं कष्टग्रस्तः इत्युक्ते दरिद्रः इति इत्युक्ते बहूनि कष्टानि सन्ति चेत् साधारणतया तथा एव वक्तुं शक्नुमः. अपि च अत्र इतोपि भवान् महामानवः अपि च दयालुः. दीपः वदति भवान् महामानवः, अत्र महामानवः इत्यपि समस्तपदं, महान् मानवः इति वदामः. यदि पदं नकारान्तपदमस्ति चेत् तत्र नकारं त्यक्त्वा प्रातिपदिकस्य विकृतरूपं स्वीकृत्य वदामः. तत्र महान् इति यद्यपि तत्र नकारं त्यक्त्वा महामानवः इति भवति. तत्र दयालुः, दयालुः इति पदं, दयालुः इत्युक्ते तत्र यस्मिन् दया अस्ति सः दयालुः. अत्र आलुच् प्रत्ययः इति एकः प्रत्ययः अस्ति, तेन दयालुः, श्रद्धालुः, कृपालुः, क्रीडालुः, तादृशरीत्या पदानि सिद्ध्यन्ति.
भगिनि, अत्र आलुच् प्रत्ययः मत्वर्त्य प्रत्ययः अस्ति वा?
तथा भवति वा इति चिन्तनीयं महोदय. मत् प्रत्ययः अस्ति चेत् तत्र मत् वा इनि प्रत्ययः अस्ति चेत् यस्य यस्मिन् वा इति अर्थः अस्ति. दयालुः तदपि तादृशरीत्या भवति इति भाति.
अतः अहं पृष्टवान्.
किन्तु कानिचन पदानि सन्ति, क्रीडालुः, कृपालुः, दयालुः, श्रद्धालुः. तत्र यस्य यस्मिन् श्रद्धा अस्ति सः श्रद्धालुः. तत्र इत्युक्ते यस्मिन् करुणा अस्ति, कारुण्यमस्ति सः, अथवा दया अस्ति सः एव दयालुः. अपि च इतोपि अग्रिमं पदं, मम इच्छायाः पूर्तिम् अहं स्वप्रयत्नेन एव करिष्यामि, कस्यापि भूतस्य सहायता न अपेक्षिता. भगवान् मम कृते बाहुद्वयं, नेत्रद्वयं, कर्णद्वयं, चरणद्वयं च दत्तवान्. उत्तमम्. इत्युक्ते हस्तद्वयं, चक्षुद्वयं, लोचनद्वयं, श्रोत्रद्वयं, पर्यायवाचकपदानि. अपि च चरणद्वयं, चरणद्वयम् इत्युक्ते पादद्वयं, पादद्वयं च दत्तवान्. मयि बलं बुद्धिं च अस्ति. मयि रूपं किं भगिनि, गीताञ्जलि भगिनि?
सप्तमी.
सप्तमी. मम बुद्धेः उपयोगं करोमि. तत्र बुद्धेः रूपं किं?
मम इत्युक्ते षष्टिः. मम बुद्धेः षष्टि अपि
षष्टिरूपम्. उत्तमं.
त्रिलिङ्ग अस्ति बुद्धिः.
बुद्धिः. अत्र अहमपि मम कार्याणि स्वयं करिष्यामि, ममापि तथैव, मम कृते किमपि मास्तु, मम कार्याणि अहमेव करिष्यामि. उत्तमाः बालाः भवन्तः, भवन्तः अपि उत्तमाः बालाः, गच्छन्तु स्वकार्याणि स्वयं कुर्वन्तु. अत्र भवन्तः वाक्यानि लिखितवन्तः वा? अधुना श्रावयन्तु वाक्यानि. प्रथमतया अत्र इतोपि के के सन्ति? अत्र शीतल् भगिनी, भवती लिखितवती वा वाक्यानि?
अहं प्रथमवार आगच्छामि, अहं न जानामि.
भगिनि सम्यक् न श्रूयते भगिनि.
भगिनि सम्यक् न श्रूयते.
वाक्यानि लिखितवन्तः वा भवन्तः?
आं भगिनि.
वाक्यानि?
आं भगिनि.
अत्र अत्र सम्भाषणस्य विषये वाक्यानि लिखितवन्तः वा भवन्तः?
आम्
आम्. तनय् महोदय, भवान् श्रावयतु वाक्यानि.
अस्तु. अस्मिन् जगति बहवः जनाः स्यात् येभ्यः प्रतिदिनम् एकवारम् अपि पर्याप्तं भोजनं न प्राप्नुयुः, तेषाम् अपि बहुशां रोगिणः स्युः, केषाञ्चन न्यूनेन्द्रियाः स्युः, केषाञ्चन तु पाणिपादम् अपि न स्युः, अस्माकं पार्श्वे तु सर्वम् अस्ति, ईश्वर कृपया सम्यक् परिवारः अपि प्राप्तः अस्माभिः, तर्हि अल्लुवादिनस्य द्वीपः किं याचनीयः अस्माभिः, किमपि न किल, यत् किमपि प्राप्तुम् इच्छेम तत् स्वप्रयत्नेन एव, एवं च सर्वदा अन्येषां जनानां सहायं करणीयम् इति.
उत्तमानि वाक्यानि, उत्तमानि महोदय, धन्यवादः. अनन्तरं गीताञ्जलि भगिनी भवती श्रावयतु.
आं भगिनि, साधारण अहं वाक्यानि चत्वारि वाक्यानि रचितवती भगिनि. साधारणतया जनाः चिन्तनेन विना परजनानां स्पर्धन्ते, परजनानां क्रियानां स्पर्धन्ते. सम्यक् भगिनि,
परजनानां स्पर्धते अनन्तरं
स्पर्धन्ते इत्युक्ते कापि अदर् बिहेवियर्स्, परजनानां क्रियानां स्पर्धन्ते.
तत्र स्पर्धते स्पर्धन्ते इत्युक्ते तत्र स्पर्धा इत्युक्ते
कम्पीट् भगिनी, किन्तु अत्र एम्युलेट् कापि अपि च दत्तम्.
अस्तु, इतोपि वदतु.
इति वाक्यं भगिनी यदि अहं कर्मणि प्रयोगे रचितवती तदनन्तरम् इति सम्यक् वा? साधारणतया जनैः चिन्तनं विना परजनानां क्रिया स्पर्धन्तः. सम्यक् भगिनि, जनैः चिन्तनं विना परजनानां क्रिया स्पर्धन्तः.
जनाः चिन्तनं विना, तत्र कर्मणि रूपं किमर्थम्?
जनैः चिन्तनं विना, जनैः तृतीया, जनैः स्पर्धन्तः, परजनानां स्पर्ध, अहं परजनानां दोष अस्ति, जनाः स्पर्धन्तः इति
तत्र किं वदामः? जनाः चिन्तनं विना स्पर्धन्ते,
किन्तु तत्तु कर्तरि प्रयोगे, अहं कर्मणि प्रयोगे यदि प्रयत्न करोमि. अहं भवतीं प्रेषितवती ईमेल् द्वारा भगिनी.
ओ कदा, अस्तु पश्यामि. इतोपि श्रावयति वा?
अस्तु भगिनि. द्वितीया, यद्यपि अल्लाहुद्दीनस्य दीपः अन्यनराणां मनोकामनाः पूरयति तथापि दीपः स्वयं बुद्धिमानः. यदा एकः बालकः किमपि स्वार्थाय न इष्टवान् दीपः तं दयालुः महामानवः उक्तवान्. निःस्वार्थाः विचाराः अवश्य प्रेषयतु, न जानीमः के तेन इत्युक्ते विचारेण निमित्तिमिति पदम् अहं न जानामि, किन्तु डिक्षनरि मध्ये अहं चतुर्थ, अहङ्कारविना लघुचिन्तनम् अपि उदार भवति.
अहङ्कारं
विना क्षम्यतां.
नो चेत् तत्र तृतीया वा यदा कदापि विना शब्दः अस्ति चेत् तत्र द्वितीया वा तृतीया वा पञ्चमी वा भवितुमर्हति. तत्र अहङ्कारं विना
अहङ्कारं विना लघुचिन्तनम् अपि उदार भवति. यथा तृतीय अपि च चतुर्थ बालकौ स्वस्ययोः विचारयोः त्यक्त्वा उत्तमचिन्तनं कृतवन्तौ.
शोभा भगिनी भवती लिखितवती वा?
आं भगिनि. अत्र अल्लाउद्दीनस्य दीपे माया एव दृश्यते. तत्तु सर्वदा वयम् आशाः प्रति अपि च तासां प्राप्तिं प्रति एव आकर्षति. अस्मिन् कथायां वयं पश्यामः कथं सर्वे बालकाः अल्लाउद्दीनस्य दीपस्य विकारहेतुना टेम्टेशन् मोहावस्थे गतवन्तः. सुलभमार्गं स्वीकृतवन्तः. केवलम् एकस्य बालकस्य सच्चिन्तनेन सर्वेषु बालकेषु झटिसि सत्परिवर्तनम् आगच्छति. तदर्थं सत्सङ्गं सर्वेषां बहु आवश्यकम्. आशायासु तु समाप्तिः एव न भवति.
समाप्तिः एव न भवति आशायासु. उत्तमम् उत्तमं धन्यवादः. अनन्तरम् उषा भगिनी भवती लिखितवती वा?
आं महोदय. स्वकार्याणि
भगिनि एकः प्रश्नः भगिनि. भगिनी झटिसि सम्यक् वा झटिति?
झटिति
अहं झटिसि उक्तवती.
झटिति
झटिति अस्तु.
उषा भगिनी वदतु.
स्वकार्याणि यदि स्वयं करोति तर्हि स एव लोके सर्वोत्कृष्टः सहायः भवति. उपदेशात् पूर्वम् अस्माभिः स्वयं कार्यं कर्तुं प्रयत्नः करणीयः. तृतीयवाक्यमस्ति, अस्मद्दीनानि उपकरणानि उपयुज्य एव सर्वमपि कार्यं वयं कर्तुं शक्नुमः.
अस्मद्दीनानि न तत्र किमस्ति?
अस्मद्दीनानि अस्मद्दीनानि उपकरणानि वाट् एवर् वि हेव् उपकरणानि उपयुज्य एव सर्वमपि कार्यं वयं कर्तुं शक्नुमः.
अनन्तरं
तावदेव भगिनि.
अस्तु उत्तमम्. अधुना वयम् अभ्यासपुस्तकं प्रति गच्छेम. अत्र अभ्यासपुस्तके बन्धुवाचकशब्दाः सन्ति सर्वे नवपञ्चाशत् तमे पुटे, इत्युक्ते पेज् 59. तत्र एकं चित्रमस्ति, तत्र चित्रं दृष्ट्वा कानिचन वाक्यानि पूरणीयानि. तत्र किं दत्तमस्ति इति एकवारं पश्येम. गीताञ्जलिभगिनी भवती पठतु अत्र अस्मिन् पुटे. तत्र 26.1 भागे
गोविन्दः गौतमी नरसिंहः गिरिजाम्बा नारायणः लता केशवः सुमा.
अत्र तयोर्मध्ये सम्बन्धः कः? गोविन्दः गौतमी तत्र तयोर्मध्ये
गोविन्दस्य जाया गौतमी अस्ति.
गोविन्दस्य जाया गौतमी. गौतम्याः
गौतम्याः पतिः गोविन्दः.
तादृशी रीत्या एव वदतु अत्र नरसिंहः गिरिजाम्बा.
भगिनी जाया पत्नी पत्नी पदस्य अन्यपदमस्ति वा?
जाया जाया अथवा किमर्थं चेत्
भ्रातृजाया अपि अस्ति.
अस्ति जाया इत्युक्ते भार्या पत्नी.
अस्तु अस्तु.
अत्र एकं वदामि, तत्र जाया इति पदस्य अर्थः बहु उत्तमः अर्थः अस्ति. जाया इत्युक्ते प्रत्येकं पदस्य निर्वचनम् अस्ति संस्कृतभाषायां. जाया इति पदस्य अर्थः कः इति वयं पश्यामश्चेत् वदतु.
यः यः जन्म ददाति सः जाया.
जाया इत्युक्ते भार्या एव. उत्तमं, वदतु भगिनि. अत्र नरसिंहः अपि च गिरिजाम्बा तयोः मध्ये सम्बन्धः कः?
नरसिंहस्य पत्नी गिरिजाम्बा, गिरिजाम्बया पतिः नरसिंहः.
गिरिजाम्बायाः पतिः नरसिंहः. अपि च नारायणः लता तयोर्मध्ये सम्बन्धः कः?
नारायणस्य भार्या लता, लतया पतिः नारायणः.
लतायाः पतिः
लतायाः पतिः नारायणः.
उत्तमम्. इत्युक्ते अत्र आहत्य कति दम्पतयः सन्ति?
दम्पतिः.
कति दम्पतयः?
अत्र दम्पतित्रयम् अस्ति.
दम्पतित्रयम् अस्ति. उत्तमम्. अत्र सुमा अपि च केशवः इति केशवः बालकः इत्युक्ते तयोः नारायणलतयोः पुत्रः केशवः अपि च सुमा तयोः पुत्रिका पुत्री. उत्तमम्. अधुना अभ्यासं करोतु अत्र.
नारायणः गोविन्दस्य गौतम्याः च पुत्रः. लता नरसिंहस्य गिरिजाम्बायाः च पुत्री.
अत्र पुत्री इति पदस्य पर्यायवाचकपदं दत्तमस्ति. तत् किं?
दुहिता.
दुहिता, तत्र प्रातिपदिकं किम्?
दुहित्र.
दुहित्र. तृच् वा तृच् प्रत्ययः वा अथवा तृन् वा भवति, तत्र दुहित्र इति ऋकारान्तपदं. दुहिता. उत्तमम्. अग्रिमं करोतु.
नारायणः केशवस्य सुमायाः च पिता. लता केशवस्य सुमायाः च माता. केशवः गोविन्दस्य गौतम्याः च पौत्रः.
पौत्रः इत्युक्ते?
पौत्र इत्युक्ते पुत्रस्य पुत्रः.
पुत्रस्य पुत्रः. अत्र पौत्रः, तत्रापि तद्धितान्तं रूपमस्ति, तद्धितप्रत्ययः पौत्रः. अपि च सुमा गोविन्दस्य गौतम्याः च पौत्री. पौत्री इत्युक्ते?
पौत्री इत्युक्ते पुत्रस्य पुत्री.
पुत्रस्य पुत्री. उत्तमं भगिनि, धन्यवादः. अनन्तरम् अत्र भूमा भगिनी भवती पठति वा? अग्रिमे पुटे किम् अस्ति? गतवती इति भाति. भूमा भगिनी अस्ति वा? नो चेत् अत्र तने महोदय भवान् करोतु अत्र.
आं भगिनि. केशवः नरसिंहस्य गिरिजाम्बायाः च दौहित्रः.
दौहित्रः इत्युक्ते?
अत्र दौहित्रः इत्युक्ते दुहितायाः न क्षम्यतां दुहितुः दुहिता इति दौहित्रः.
दुहितुः
क्षम्यतां दुहितुः पुत्रः
इत्युक्ते पुत्र्याः पुत्रः.
आम्
दुहितुः पुत्रः दौहित्रः. किन्तु पुत्रस्य पुत्रः पौत्रः, किन्तु दुहितुः पुत्रः दौहित्रः. इत्युक्ते तत्र भेदः अस्ति. पुत्रस्य पुत्रः
भगिनी पुनः वदतु.
पुत्रस्य पुत्रः पौत्रः, किन्तु पुत्र्याः पुत्रः दौहित्रः. तथा एव पुत्रस्य पुत्री पौत्री, किन्तु पुत्र्याः पुत्री दौहित्री. अग्रिमं करोतु महोदय.
सुमा नरसिंहस्य गिरिजाम्बायाः च दौहित्री, यथा भवती उक्तवती दुहितुः दुहिता इति दौहित्री.
अग्रिमम्.
गोविन्दः केशवस्य सुमायाः च पितामहः. अत्र पितुः पिता इति पितामहः.
पितुः पिता पितामहः. अत्र गोविन्दः केशवस्य सुमायाः च पितामहः इति दत्तमस्ति. तत्र भिन्नरूपेण वदामश्चेत् किं वदामः? अत्र केशवः
केशवः गोविन्दस्य पौत्रः.
सुमा
अपि च सुमा गोविन्द सुमा तस्य पौत्री.
उत्तमम्. अग्रिमम्.
गौतमी केशवस्य सुमायाः च पितामही. पितामही इत्युक्ते पितुः माता. नरसिंहः केशवस्य सुमायाः च मातामहः. मातामहः इत्युक्ते मातुः पिता.
मातुः पिता.
गिरिजाम्बा केशवस्य सुमायाः च मातामही. मातामही इत्युक्ते मातुः माता. अग्रिमं पठामि वा?
पठतु महोदय.
नारायणः नरसिंहस्य गिरिजाम्बायाः च जा माता. अत्र नारायणः केशवस्य सुमायाः क्षम्यतां नारायणः नरसिंहस्य गिरिजा. अत्र मातुः पितरौ इत्यस्य
अत्र पश्यतु. अत्र आवरणे किं दत्तमस्ति? पुत्र्याः पतिः.
आमाम्.
इत्युक्ते वदतु.
अत्र यत् पुत्री अस्ति, यत् पुत्री अस्ति तस्य तस्याः पतिः इति पुत्र्याः पितरयोः कृते जामाता.
तदेव अत्र लिखितमस्ति. नारायणः कः इत्युक्ते, नारायणस्य विषये इतोपि किं वक्तुं शक्नुमः? नरसिंहः अपि च गिरिजाम्बा दम्पतिः अस्ति. नरसिंहस्य अपि च गिरिजाम्बायाः जामाता एव नारायणः. जामाता इत्युक्ते पुत्र्याः पतिः, son in law. पुत्र्याः पतिः जा माता. अत्र अहं दृष्टवती जायां माति जा माता इति अर्थः.
जायां माता भगिनी पुंलिङ्ग पुंलिङ्ग पदं किमर्थं माता इति?
न तत्र माता इति नास्ति भगिनी, तत्र जा माता इति पदं कथं निष्पन्नं भवति इति द्रष्टव्यं. तत्र जा माता इति पदस्य अर्थः जायां माति. माति इत्युक्ते मापनं करोति. तत्र निर्वचनं किं, पदं कथं निष्पन्नं भवति? जामाता इत्युक्ते पुत्र्याः पतिः, साधारण अर्थः. किन्तु तत्र जायां माति इति दत्तमस्ति. इत्युक्ते अत्र माति, माति इति मा धातुः अस्ति, मा धातोः रूपं माति, अदादिगणीयधातुः. तत्र
माता करोति,
मापनं करोति.
जायां इत्युक्ते
भवती उक्तवती, जाया इत्युक्ते भार्या. जायां द्वितीया विभक्ति कर्मपदं, जायां माति.
माति अहं न अवगच्छामि भगिनि. मा इत्युक्ते माता.
माति इत्युक्ते मेजर् भगिनि.
मेजर्, ओके.
माति मा धातोः रूपमेव, मापनं, मापयति, माति मापयति, तत्र दा दापयति इव, तत्र मा मापयति, माति णिजन्तरूपं मापयति, तथा भवति. अहम् एकां कथां पठितवती तेलुगुभाषायां, जामाता दशमग्रहः इति एका कथा अस्ति, बहु उत्तमा कथा.
दशमग्रहः
साधारणतया वयं नवग्रहान् एव पश्यामः, किन्तु जामाता इत्युक्ते दशमग्रहः. किन्तु हास्यकथा अस्ति. अस्तु, उत्तमं. तने महोदय वदतु अग्रिमम्.
आम्, लता गोविन्दस्य गौतम्याः च स्नुषा. स्नुषा इत्युक्ते पुत्रस्य पत्नी.
इत्युक्ते डाक्टर् इन् ला, पुत्रस्य पत्नी स्नुषा. स्नुषा, तत्र अर्थं किं, तत्र तस्य अर्थः कः, पदं कथं निष्पन्नं भवति इति द्रष्टव्यं. यदि वयं जानीमश्चेत् बहु सुन्दररीत्या एतानि पदानि निष्पन्नानि भवन्ति. तत्र अन्ततो गत्वा
अत्र मम एकः प्रश्नः भगिनि, जाया इति पदं पत्नी इति सहधर्मिणी अपि अस्ति, जीवनस्य धर्मे ईक्वल् पार्ट् सहधर्मिणी, तदेव जाया इत्युक्ते या इत्युक्ते यात्रा, यात्रिका अपि अस्ति वा भगिनि? जा इत्युक्ते जन्मः. अहं मम कुतूहलः अस्ति जाया इत्युक्ते अर्थं किम् अस्ति इति.
तत्र कक्षायाः अनन्तरं पश्यामि भगिनि, अत्र तस्मिन् विषये किञ्चित् प्रेषयामि. तत्र जाया इति पदं कथं निष्पन्नं भवति, तस्य अर्थः कः इति कक्षायाः अनन्तरं प्रेषयामि. उत्तमम्. अनन्तरम् अत्र स्नुषा इत्युक्ते डाटर् इन् ला इति अस्ति. अग्रिमं पठतु महोदय.
गोविन्दः लतायाः श्वशुरः इत्युक्ते किं वदामि अत्र, पतिशब्दस्य षष्टि पतुः अस्ति खलु? पत्युः पिता इति श्वशुरः.
श्वशुरः, उत्तमं. गौतमी लताय, गौतमी लतायाः श्वश्रूः इत्युक्ते
इत्युक्ते पत्युः माता इति श्वश्रुः.
श्वश्रुः उत्तमम्. अत्र पदानि पुत्रः पुत्री, पिता माता, पौत्रः पौत्री, दौहित्रः दौहित्री, पितामहः पितामही, मातामहः मातामही, जामाता, सुषा, श्वशुरः श्वश्रूः. एतानि सर्वाणि अपि बन्धुवाचकशब्दाः. उत्तमं, धन्यवादः महोदय. गीताञ्जलि भगिनी वदतु.
स्नुषा किमर्थं निष्पन्ना, कथं निष्पन्ना भवति?
द्रष्टव्यं भगिनि, अहमपि न जानामि सम्यक्.
अस्तु,
तत्र किन्तु जाया इति पदं किञ्चित् जानामि, अनन्तरं पश्यामि, प्रेषयामि. अनन्तरम् अत्र उषा भगिनी भवती पठतु. अत्र 26.2 भागे अत्र कानिचन वाक्यानि सन्ति. उमानाथः इति एकः पुरुषः अस्ति, तस्मिन् विषये किञ्चित् लिखितमस्ति, तदपि कुर्मः. करोतु भगिनि.
एतानि वाक्यानि पठतु. उमानाथः वित्तकोषे अधिकारी. तस्य पिता वीरभद्रः, माता इन्दिरा. उमानाथः शालिनीं परिणीतवान्. शालिन्याः पिता जगदीशः, माता पुष्पा. उमानाथस्य पुत्री सुधा, पुत्रः प्रभाकरः.
तत्र अभ्यासः अस्ति, अभ्यासं करोतु.
रिक्तस्थानानि उचितैः शब्दैः पूरयतु.
अत्र उचितैः शब्दैः रूपं किम्?
उचितैः तृतीया विभक्ति बहुवचनं.
बहुवचनम्. अत्र वित्तकोशः अत्र इत्युक्ते किम्? वित्तकोशः
बेङ्क्
उपरि बेङ्क्. उत्तमं. न उपरि उपरि पश्यतु. उपरि वित्तकोशः इति दत्तमस्ति. उमानाथः वित्तकोशे अधिकारी.
वित्तकोशः इत्युक्ते बेङ्क् भगिनि.
उत्तमं. अत्र अधिकारी इति पदस्य प्रातिपदिकं किम्?
अधिकारी अधिकारिन्
नकारान्तपदम्. अधिकारिन् इति पदं करोतु, अधुना करोतु.
उमानाथः वीरभद्रस्य, उमानाथः वीरभद्रस्य शालिनीं शालिन्याः, तस्य पिता उमानाथः वीरभद्रस्य पुत्र, तस्य पिता उमानाथः वीरभद्रस्य पुत्रः.
पुत्रः अपि च इन्दिरायाः पुत्रः.
इन्द्राय पुत्रः.
अग्रिमम्.
उमानाथः प्रभाकरस्य, प्रभाकर माता इन्द्र, उमानाथः शालिन्याः पिता जगदीशः, उमानाथस्य पुत्री सुधा, पुत्रः प्रभाकरः. उमानाथस्य उमानाथः प्रभाकरस्य प्रभाकर पिता.
इत्युक्ते उमानाथः प्रभाकरस्य पिता.
पिता
अथवा उमानाथः सुधायाः पिता. अग्रिमम्.
प्रभाकरः, प्रभाकरः वीरभद्रस्य, प्रभाकरः वीरभद्रस्य, प्रभाकरः वीरभद्र
बालक. अत्र प्रभाकरः एकः बालकः, किन्तु वीरभद्र
प्रभाकरः
पौत्र
पौत्रः.
उत्तमं. प्रभाकरः वीरभद्रस्य पौत्रः अथवा इतोपि किं वदामः? अत्र इन्दिरायाः पौत्रः.
इन्द्रायाः पौत्रः.
इन्दिरायाः पौत्रः. अपि च चतुर्थं केवलं पितामहः इति दत्तमस्ति, तत्र कथं वक्तव्यं?
प्रभाकरस्य पितामहः प्रभाकरस्य पितामहः उमा न
तावदेव, किन्तु तत्र नाम उच्यता, नाम वदतु. अत्र प्रभाकरस्य पितामहः कः?
उमा नहीं, माता इन्दिरा, वीरभद्रः.
पूर्णतया वाक्यं वदतु. वीरभद्रः.
प्रभाकरस्य पितामहः वीरभद्रः.
उत्तमं, तावदेव. अग्रिमं.
दौहित्रः. दौहित्र इत्युक्ते ग्रान्सन्. दौहित्रः वीरभद्रस्य दौहित्रः प्रभाकरः.
न न, तथा न भवति. किमर्थं चेत् तत्र वीरभद्रः पितामहः.
वीरभद्रः पितामहः.
वदतु, दौहित्रः इति दत्तमस्ति, कस्य नाम दौहित्रः? दुहितुः पुत्रः दौहित्रः. दुहिता का इत्युक्ते दुहिता का, मेटर्नल् ग्राण्ड् फादर्, पेटर्नल् ग्राण्ड् फादर् इति वदामः. अत्र दुहिता जगदीशस्य पुत्री शालिनी.
जगदीश, शालिन्याः पिता जगदीशः.
अपि च अत्र किं वक्तव्यं? दौहित्रः
जगदीशस्य न न शालिन्याः जगदीशस्य दौहित्रः प्रभाकरः.
तत्र शालिनीं त्यजतु, तत्र प्रभाकरः दौहित्रः. कस्य दौहित्रः?
पुष्पायाः च
जगदीशस्य किमपि. तत्र चिन्ता मास्तु भगिनि, चिन्ता मास्तु. अस्तु, अधुना इतोपि किं दत्तमस्ति? सः दौहित्रः. कस्य दौहित्रः? जगदीशस्य दौहित्रः, अथवा पुष्पायाः दौहित्रः. अपि च प्रभाकरस्य पितामही का?
प्रभाकरस्य पितामही, तस्य पिता वीरभद्र, माता इन्दिरा, मा माता शालिन्याः पिता जगदीशः, उमानाथस्य पुत्री, पुत्री प्रभाकर.
चिन्ता मास्तु. अत्र गीताञ्जलि भगिनी भवती वदतु, अत्र प्रभाकरस्य पितामही का?
प्रभाकरस्य पितामही इन्दिरा.
उत्तमम्. अपि च सुधा कस्य दौहित्री?
सुधा जगदीशस्य पुष्पायाः दौहित्री.
उत्तमम्. अन्तिमं वाक्यं भवती करोतु.
मातामहः इन्दिरा प्रभाकरस्य सुधायाः मातामहः.
वदतु भगिनि.
प्रभाकरस्य सुधायाः च मातामहः.
उत्तमं. जगदीशः प्रभाकरस्य सुधायाः मातामहः. मातामहः इत्युक्ते मेटर्नल् ग्राण्ड् फादर्.
अस्तु भगिनि.
अत्र मातामही,
तत्र मातामही इति पदमस्ति चेत् कथं वक्तव्यम्?
स्त्रीलिङ्गपदं मातामही इत्युक्ते पितुः माता,
मातामही. अत्र मातामही इति पदमस्ति चेत् तत्र वाक्यं कथं वक्तव्यम्? का कस्याः मातामही, कस्य मातामही?
का कस्य,
वदतु भगिनि पुष्पा, तत्र शोभा भगिनि.
पुष्पा प्रभाकरस्य सुधायाः च मातामही.
तावदेव उत्तमं, तत्र कन्फ्यूजन् मास्तु. अस्तु अस्तु, अग्रिमे पुटे तत्र कानिचन पदानि सन्ति, भवती एव पठतु अत्र.
किन्तु तानि वाक्यानि कन्फ्यूसिङ्ग् एव सन्ति. अग्रिमे, अन्ये केचन बन्धुवाचकाः शब्दाः, मातुलः मातुः भ्राता, मातुलानि मातुलस्य पत्नी, भागिनेयः भगिन्याः पुत्रः, भागिनेयी भगिन्याः पुत्री, ननान्दा पत्युः भगिनी, पितृव्यः पितुः भ्राता, पितृभगिनी पितुः भगिनी, श्यालः पत्याः भ्राता, पत्न्याः भ्राता, देवरः पत्युः भ्राता, आवृतः आवृत्तः भगिन्याः पतिः.
अत्र केवलं
आवृत्तः, आवृत्तः, क्षम्यताम्, आवृत्तः भगिन्याः पतिः.
उत्तमं, तावदेव. इत्युक्ते अहं किं वदामि, अत्र भगिन्याः पुत्रः भागिनेयः, तत्र तद्धितप्रत्ययान्तरूपं, यथा दशरथस्य पुत्रः दाशरथी, तथा एव अत्र भगिन्याः पुत्रः भागिनेयः, पुंलिङ्गे भागिनेयः, स्त्रीलिङ्गे भागिनेयी, तथा एव अत्र पितृभगिनी इति पदं समस्तपदम् इति अस्ति इति कृत्वा तत्र प्रातिपदिकं स्वीकृतमस्ति. तदर्थमेव तत्र पितृभगिनी इति भवति. अत्र एतानि सर्वाणि बन्धुवाचकशब्दाः, किन्तु
तदेव मातृभगिनी अपि आसीत् वा भगिनि?
मातृभगिनी इत्यपि अस्ति, तावदेव. किन्तु एतानि पदानि कथं निष्पन्नानि भवन्ति इति अपि जानीमश्चेत् इतोपि सम्यक् भवति. उत्तमं, परन्तु अस्माकं पार्श्वे पतञ्जलिः कथा अपि अस्ति, किन्तु अग्रिमे सप्ताहे पुनः एकवारं मिलित्वा तां कथां पठिष्यामः. अधुना सर्वेषां धन्यवादः, नमस्कारः.
धन्यवादः, धन्यवादः, नमस्कारः.
धन्यवादः भगिनी,
नमस्कारः,
नमस्कारः.